श्रीमद्भागवत महापुराणम् एकादशस्कन्धः अथ द्वाविंशोऽध्यायः उद्धव उवाच कतितत्वानि विश्वेशसंख्यातानि ऋषिभिः प्रभो न वैकादश पञ्चत्रीण्यर्थत्वमिह शुश्रुम केचित् षड्विंशतिं प्राहुरपरे पञ्चविंशतिं सप्तैके नव षट्केचिच्चत्वार्येकादशापरे केचित् सप्तदश प्राहुषोडशैके त्रयोदश एतावत्त्वं हि संख्यानामृषयो यद्विवक्षया गायन्ति पृथगायुष्मन्निदन्नो वक्तुमर्हसि श्रीभगवानुवाच युक्तै च सन्ति सर्वत्र भाषन्ति ब्रह्मणा यथा मायां मदीयामुद्रूय वदतां किन्नु दुर्घटम् नैतदेवै यथार्थत्वै यदहं वच्मि तत्तथा एवं विवदतां हेतुं शक्तयो मे दुरत्ययाः यासां व्यतिकरादासीद्विकल्पो वदतां पदम् प्राप्ते शमदमेपेति वादस्तमनुशाम्यति परस्परानुप्रवेशातत्त्वानां पुरुषर्षभ पौर्वापर्यप्रसङ्ख्यानै यथा वक्तुर्विवक्षितम् एकस्मिन्नपि दृश्यन्ते प्रविष्टानीतराणि च पूर्वस्मिन् वा परस्मिन् वा तत्त्वे तत्त्वानि सर्वशः पौर्वापर्यमतो मीषां प्रसङ्ख्यानमभीप्सतां यथा विविक्तै यद्वक्त्रं गृह्णीमो युक्तिसम्भवात् अनाद्यविद्यायुक्तस्य पुरुषस्यात्मवे स्वतो न संभवादन्यस्तत्त्वज्ञो ज्ञानदो भवेत् पुरुषेश्वरयोरत्र न वैलक्षण्यमण्वपि तदन्यकल्पनापार्था ज्ञानै च प्रकृतिर्गुणः प्रकृतिर्गुणसाम्यो वै प्रकृतिर्नात्मनो गुणाः ते स्थित्युत्पत्यन्तहेतवः सत्वैज्ञानं रजः कर्म तमो ज्ञानमिहोच्यते गुणव्यतिकरः कालस्वभावसूत्रमेव च पुरुषः प्रकृतिर्व्यक्तमहङ्कारो नभो निलः ज्योतिरापः क्षितिरिति तत्त्वान्युक्तानि मे नव श्रोत्रं त्वग्दर्शनं घ्राणो जिह्वेति ज्ञानशक्तयः वाक्पाण्युपस्थपायवङ्घ्रिकर्माण्यङ्गोभयं मनः शब्दस्पर्शो रसो गन्धो रूपै चेत्यर्थजातयः गत्युक्त्युत्सर्गशिल्पानि कर्मायतनसिद्धयः सर्गादौ प्रकृतिर्यस्य कार्यकारणरूपिणी सत्त्वादिभिर्गुणैर्धत्ते पुरुषो व्यक्त ईक्षते व्यक्तादयो विकुर्वाणाधातवः पुरुषे क्षया लब्धवीर्या सृजन्त्यण्डं संहताः प्रकृतेर्बलात् सप्तैव धातव इति तत्रार्थाः पञ्चखादयः ज्ञानमाथो भयाधारस्ततो देहेन्द्रियासवः षडित्यत्रापि भूतानि पञ्चषष्ठः परः पुमान् तैर्युक्तात्मसम्भूतैः सृष्ट्वेदं समुपाविशत् चत्वारिवेति तत्रापि तेजापोन्नमात्मनः जातानि तैरिदै जातै जन्मावयविनः खलु सङ्ख्यानि सप्तदशके भूतमात्रेन्द्रियाणि च पैच पैचैकमनस आत्मा सप्तदश स्मृतः तद्वक्षोडश सङ्ख्यानि आत्मैव मन उच्यते भूतेन्द्रियाणि पञ्चैव मन आत्मात्रयोदश एकादशत्वात्मासौ महाभूतेन्द्रियाणि च अष्टौ प्रकृतयश्चैव पुरुषश्च जनवेत्यथ इति नानाप्रसङ्ख्यानन्तत्वानां ऋषिभिः कृतं सर्वन्याय्ययुक्तिमत्वाद्विदुषां किमशोभनम् उद्धव उवाच प्रकृतिः पुरुषश्चोभौ यद्यप्यात्मविलक्षणौ अन्योन्यापाश्रयात् कृष्ण दृश्यते नभिदातयोः प्रकृतौ लक्ष्यते ह्यात्मा प्रकृतिश्च तथात्मनि एवं मे पुण्डरीकाक्ष महान्तं संशयं हृदि छेतुमर्हसि सर्वज्ञ वचोभिर्नयनैपुणैः त्वत्तो ज्ञानं हि जीवानां प्रमोषस्तेऽत्र शक्तितः त्वमेव यात्ममायाया गतिर्वेत्थन चापरः श्रीभगवानुवाच प्रकृतिः पुरुषश्चेति विकल्पः पुरुषर्षभ एष वैकारिकः सर्गो गुणव्यतिकरात्मकः ममाङ्गमाया गुणमय्यनेकधा विकल्पबुद्धिश्च गुणैर्विधत्ते वैकारिकस्त्रिविधोऽध्यात्ममेक मथाधिदैवमधिभूतमन्यत् दृग्रूपमार्कौ वपुरत्र रन्ध्रे परस्परं सिध्यति यस्वतख्ये आत्मा यदेषामपरो यद्यस्त्वयानुभूत्याखिलसिद्धसिद्धिः एवं त्वगादिश्रवणादिचक्षुर्जिह्वादिनासादि च चित्तयुक्तम् योऽसौ गुणक्षोभकृतो विकारः प्रधानमूलान्महतः प्रसूतः अहं त्रिवृन्मोहविकल्पहेतुर्वैकारिकस्तामसैन्द्रियश्च आत्मा परिज्ञानमयो विवादो यस्तीति नास्तीति भिदार्थनिष्ठः व्यर्थोऽपि नैवो परमेत पुंसां मत्तः परावृत्तधियां स्वलोकात् उद्धव उवाच त्वत्तः परावृत्तधियस्वकृतैः कर्मभिः प्रभो उच्चावचान्यथा देहान् गृह्णन्ति विसृजन्ति च तन्ममाख्या हि गोविन्द दुर्विभाव्यमनात्मभिः न हि एतत्प्रायशो लोके विद्वांसः सन्ति वैचिताः श्रीभगवानुवाच मनः कर्ममयन्द्रूणामिन्द्रियैः पैचभिर्युतं लोकाल्लोकं प्रयात्यन्त्य आत्मा तदनुवर्तते ध्यायन् मनोनु विषयान् दृष्टान् वानुश्रुतानथ उद्यत्सीदत्कर्म स्वतन्त्रं स्मृतिस्तदनुशाम्यति विषयाभिनिवेशेन नात्मानैयत्स्मरेत् पुनः जन्तुर्वैकस्यचिद्धेतोर्मृत्युरत्यन्तविस्मृतिः जन्मत्वात्मतया पुंसः सर्वभावेन भूरिद विषयस्वीकृतिं प्राहुर् यथा स्वप्नमनोरथः स्वप्नं मनोरथै चेत्थं प्राक्तनन्न स्मरत्यसौ तत्र पूर्वमिवात्मानमपूर्वै चानुपश्यति इन्द्रियायनसृष्टिदं त्रैविध्यं भाति वस्तुनि बहिरन्तर्भिदाहेतुर्जनो सज्जनकृद्यथा नित्यदायङ्गभूतानि भवन्ति न भवन्ति च कालेनालक्ष्यवेगेन सूक्ष्मत्वात्तन्न दृश्यते यथार्चिषां स्रोतसाय च फलानां वा वनस्पतेः तथैव सर्वभूतानां वयोवस्थादयः कृताः सोऽयं दीपोर्चिषां यद्वत् स्रोतसां तदिदै जलम् सोऽयं पुमानिति नृणां मृषा गीर्धीर्मृषायुषां मा स्वस्य कर्म बीजेन जायते सोऽप्ययं पुमान् म्रियते वामरो भ्रान्त्या यथा दारुसंयुतः निषेकगर्भजन्मानि बाल्यकौमारयौवनं वयो मध्यै जरामृत्यु रित्यवस्थास्तनोर्नव एतामनोरथमयीर्यन्यस्योच्चावचास्तनुः गुणसङ्गादुपादत्ते क्वचित् कश्चिज्जहाति च आत्मनः पितृपुत्राभ्यामनुमेयौ भवाप्ययौ न भवाप्ययवस्तूनामभिज्ञो द्वयलक्षणः तरोर्बीजविपाकाभ्यायो विद्वाय जन्मसंयमौ तरोर्विलक्षणो द्रष्टायैवं द्रष्टा तनोः पृथक् प्रकृतिरेवमात्मानमविविच्या बुधः पुमान् तत्त्वेन स्पर्शसम्मूढः संसारं प्रतिपद्यते సత్వసంగాదృషీన్ దేవాన్ రజసాసురమానుషాన్ తమసాభూతతిర్యక్త్వం భ్రామితో యాతి కర్మభిః నృత్యతో గాయతః పశ్యన్ యథైవానుకరోతి తాన్ ఏవం బుద్ధిగుణాన్ పశ్యన్ననీహోప్యనుకార్యతే యథాంభసా ప్రచలతా తరవోపి చలా ఇవ చక్షుషా భ్రామ్యమాణేన దృశ్యతే భ్రమతీవ భూ యథా మనోరథ ధియో విషయానుభవో మృషా స్వప్నదృష్టాశ్చ దాశార్హ తథా సంసార ఆత్మనః అర్థేయ విద్యమానేపి సంశ్రుతిర్న నివర్తతే ధ్యాయతో విషయానస్య స్వప్నేనర్థాగమో యథా తస్మాదుద్ధవమా భుంక్ష్వ విషయాన సదింద్రియైః ఆత్మగ్రహణ నిర్భాతం పశ్య వై కల్పికం భ్రమం క్షిప్తోవమానితో సద్భిః ప్రలబ్ధోసు వృత్యావా పరిహాపితః నిష్ఠితో మూత్రితో వాగ్యైర్బహుధైవం ప్రకంపితః శ్రేయస్కామకృచ్ఛ్రగత ఆత్మనాత్మానముద్ధరేత్ ఉద్ధవ ఉవాచ యథైవమనుబుద్ధేయ వదనో వదతాం వర సుదుస్సహమిమం మన్యే ఆత్మన్యసదతిక్రమం విదుషామపి విశ్వాత్మన్ ప్రకృతిర్హి బలీయసి ఋతే త్వద్ధర్మనిరతాన్ శాంతాంస్తే చరణాలయాన్ ఇతి శ్రీమద్భాగవతే మహాపురాణే పారమహంస్యాం సంహితాయాం ఏకాదశ స్కంధే ద్వావింశోధ్యాయః ఓం సర్వం శ్రీ కృష్ణార్పణమస్తు.